इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना योगदिवसावसरे उक्तं यत् अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य अशान्तेः अस्थिरतायाः च मध्ये शान्तेः मार्गं प्रददाति। नागरिकविमाननपत्तनमहानिदेशालयः एयर इण्डिया इति संस्थायै निर्देशं दत्तवान् यत् गभीरतया नियमोल्लङ्घनमुद्दिश्य त्रयः अधिकारिणः तत्क्षणमेव प्रभावेण निष्कासयन्त्विति। क्षेत्रीय ऐक्यस्य महत्वपूर्णेन भावेन ईरान देशे विलम्बितान् नेपाल श्रीलंका देशयोः नागरिकान् प्रत्यावर्तने ऑपरेशन सिंधु इत्यस्यान्तर्गतं समावेशयितुं भारतं स्वस्य निर्वासन प्रयासान् प्रावर्तयत्। इज़राइल ईरान देशयोर् द्वन्द्वस्य नवमे दिनेपि प्रक्षेपास्त्राणां प्रहारः प्रचलति। क्यूब नगरस्य एकस्मिन् आवाससमूहे कृताक्रमणे ईरान देशस्य एकः वरिष्ठः सेनापतिः सईद इजादी मृतः। अपि च तेंदुलकर एंडरसन ट्रॉफीति निकषस्पर्धायाः पञ्चक्रीडाश्रृङ्खलायां द्वितीय दिवसे जलपानावकाशं यावत् भारतेन षट् क्रीडकाणां हानौ चतुर्पञ्चाशदुत्तर चतुःशत धावनाङ्काः रचिताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य अशान्तेः अस्थिरतायाः च मध्ये शान्तेः मार्गं प्रददाति तथा च शान्तियुतं सन्तुलितं सुस्थिरं च विश्वं प्रवर्तयितुं सामूहिकप्रयासस्य आह्वानं करोति। सः अवदत् यत् योगः विश्वं संघर्षात् सहकारं प्रति नयेदिति। आन्ध्रप्रदेशस्य विशाखापट्टनं नगरस्य रमणीयसमुद्रतटं निकषा एकादशम् अन्ताराष्ट्रिययोगदिवसोत्सवं सम्बोधयन् प्रधानमन्त्री अवदत् यत् योगः एकः विरामचिह्नः अस्ति, यतोहि मानवजातीनां सोच्छ्वासयोः सन्तुलनं कर्तुं पुनः स्वस्थं भवितुं च आवश्यकं भवति।
आज 11 साल बाद हम देख रहे हैं कि योग दुनिया भर में करोड़ों लोगों की जीवन शैली का हिस्सा बन चुका है। मुझे गर्व होता है जब मैं देखता हूं कि हमारे दिव्यांग साथी ब्रेल में योग शास्त्र पढ़ते हैं, वैज्ञानिक अंतरिक्ष में योग करते हैं, गांव-गांव में युवा साथी योग ओलंपियाड में भाग लेते हैं।
प्रधानमन्त्री अवदत् यत् अस्मिन् वर्षे दिवसस्यास्य विषयवस्तुः योगा फोर वन अर्थ वन हेल्थ इति अस्ति। सः अवदत् यत् जगति योगस्य प्रसाराय भारतम् आधुनिकशोधमाध्यमेन योगविज्ञानम् इतोऽपि सुदृढं करोति, यस्मिन् देशस्य प्रमुखाः चिकित्सासंस्थाः योगविषयिकसंशोधने निरताः सन्ति।
दिल्ली के एम्स ने भी बहुत अच्छा काम करके दिखाया है। एम्स की रिसर्च में सामने आया है कि योग की कार्डियक और न्यूरोलॉजी डिसऑर्डर्स के उपचार और विमेन हेल्थ और मेंटल वेलबींग में अहम भूमिका है। साथियों, नेशनल आयुष मिशन के जरिए भी योग और वेलनेस के मंत्र को आगे बढ़ाया जा रहा है।
अन्ताराष्ट्रिय योग दिवसः सम्पूर्णे देशे सोत्साहं समाचर्यते। अद्य देहरादूननगरस्य पुलिस लाइन इति क्षेत्रे आयोजिते योगशिविरे राष्ट्रपतिः द्रौपदी मुर्मुः भागम् अगृह्णात्। विश्वमञ्चे योगस्य प्रोत्साहने भारतस्य महत्वपूर्णां भूमिकां प्रकाशयन्ती सा अवदत् यत् अधुना विश्वसमुदायः योगस्य विषये अधिकम् आदरं धारयति, येन महाद्वीपेषु जनाः तस्य लाभमपि अनुभवन्ति।
योग पूरी मानवता की साझा धरोहर बन चुका है। ये भारत की सॉफ्ट पावर का एक अत्यंत महत्वपूर्ण उदाहरण है। भारत की पहल पर योग के प्रति विश्व समुदाय का सम्मान बढ़ा है और दुनिया भर के लोग इससे लाभान्वित हो रहे हैं।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सम्मेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। लद्दाख नगरे कारगिल क्षेत्रस्य क्री सुल्तानचू क्रीडांगणे अन्ताराष्ट्रिय योग दिवसः अत्यन्तोत्साहेन आचर्यत। गोवाराज्ये मुख्यमंत्री डॉ. प्रमोद सावन्तः तालीगांव नगरस्य श्यामप्रसाद मुखर्जी क्रीडांगणे योग दिवसस्य कार्यक्रमस्य नेतृत्वं कृतवान्। सः योगः विश्वस्य कृते भारतस्य महान् उपहारः इति च उद्घोषितवान्। गोवाराज्ये एकादशः अन्ताराष्ट्रिय योग दिवसः वैभवेन आध्यात्मिकशक्त्या च आचर्यते। केन्द्रीय नवीन पुनर्नवीकरणीय ऊर्जा राज्यमन्त्री श्रीपाद नायकः ओल्ड गोवा नगरस्य भव्य चर्च कॉन्वेंट इति विश्वविदितस्थले उत्सवस्यास्य नेतृत्वं कृतवान्। सभां सम्बोधयन् सः कथं योगः न केवलं शरीरम् अपि तु मनसः आत्मनश्च पोषणं करोतीति उक्तवान्। राष्ट्रियराजधान्याम् आकाशवाणी मुख्यालयेऽपि विशेषयोगसत्रस्य आयोजनम् अभवत्। आकाशवाण्याः महानिदेशिका डॉ. प्रज्ञा पालिवाल गौड अनया साकम् अतिरिक्तमहानिदेशकः एल. मधुनागश्च अधिकारिभिः कर्मचारिभिश्च समं कार्यक्रमेऽस्मिन् भागं गृहीत्वा योगासनानाम् अभ्यासम् अकुरुताम्। रियाद देशस्य भारतीय दूतावासेन अन्ताराष्ट्रिय योग दिवसः सोल्लासं समाचरितः। अनेनैव प्रकारेण विभिन्न देशस्थैः भारतीय दूतावासैरपि दिवसस्यास्य समायोजनं जनान् संयोज्य उत्साहपूर्वकं समाचरितम्। नागरिक विमानपत्तन महानिदेशालयः एयर इंडिया इति संस्थायै निर्देशं दत्तवान् यत् गभीरतया नियमोल्लङ्घनमुद्दिश्य त्रयः अधिकारिणः तत्क्षणप्रभावेण निष्कासयन्त्विति। आन्तरिक अनुशासनात्मक कार्याचरणाय च निर्देशं दत्तवान्। सहैव हि परिणामानां प्रस्तुतिः दशदिनेषु निवेदयन्त्विति निर्देशं दत्तवान्। एकस्मिन् वक्तव्ये DGCA इत्यनेन उक्तं यत् एते अधिकारिणः परिचालनदोषाणां कृते उत्तरदायिनः सन्ति इति। क्षेत्रीय ऐक्यस्य महत्वपूर्णेन भावेन ईरान देशे विलंबितान नेपाल श्रीलंका देशयोः नागरिकान् प्रत्यावर्तने समावेशयितुम् ऑपरेशन सिंधु इत्यस्यान्तर्गतं भारतं स्वस्य निर्वासनप्रयासान् प्रावर्तयत्। एक्स इत्यत्र प्रदत्ते संदेशे उक्तमस्ति यत् नेपाल श्रीलंका सर्वकारयोः औपचारिक अनुरोधानुगुणं एतत् कार्यं अभवदिति। इज़राइल ईरान देशयोर द्वंद्वस्य नवमे दिनेपि प्रक्षेपास्त्राणां प्रहारः प्रचलति। गतरात्रौ एव इज़राइल देशेन ईरान देशस्य परमाणु संरचनां विरुध्य सैन्य कार्याचरणं कृतम्। इज़राइल सैन्य प्रवक्त्रा उक्तं यत् मध्य ईरान देशे क्षेपणास्त्र भण्डारस्य आधारभूत संरचना स्थलानि विरुध्य आक्रमणानां श्रृंखला समारब्धा अस्ति। इज़राइलस्य रक्षामन्त्रिणा इज़राइल काज इत्यनेन उक्तं यत् क्यूम नगरस्य एकस्मिन् आवास समूहे कृताक्रमणे ईरान देशस्य एकः वरिष्ठः सेनापतिः सईद ईजादी मृतः। अद्य प्रातःकाले इम्फाहान नगरस्य परमाणु केन्द्रे इज़राइल देशपक्षतः आक्रमणस्य सूचना अपि ईरानी संचारमाध्यमेन प्रदत्ता अस्ति। ईरानस्य वायुरक्षया च अस्याक्रमणस्य प्रतिक्रिया प्रदत्ता इत्यपि उच्यते। आर्थिकवर्षेऽस्मिन् देशस्य सकलप्रत्यक्षकरसङ्ग्रहः 0.684% वृद्धिं प्राप्य जूनमासस्य 21 दिनाङ्कपर्यन्तं प्रायः 5.5 लाख करोड़ रूप्यकाणि अभवत्। गतवर्षस्य च समानकाले प्रायः 5.5 लाख रूप्यकाणि एव आसीत्। क्रिकेट क्रीडायां भारत इंग्लैंड देशयोः मध्ये तेंदुलकर एंडरसन ट्रॉफी निकषस्पर्धायाः पंच क्रीडा श्रृंखलायाः प्रथम क्रीडा लीड्स नगरस्य हेडिंग्ले क्रीडांगणे प्रचलति, यत्र द्वितीय दिवसस्य जलपानावकाशं यावत् भारतेन 6 क्रीडकाणां हानौ 54.4 शतधावनांकाः रचिताः इति वार्ताः।